येन धौता गिरपुंसां विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै श्रीपाणिनये नमः। हरिः ओं सर्वेभ्यः नमः। नमस्कारः महोदय।
नमस्कारः भगिनी, सर्वेभ्यः नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानविषये अस्ति तत्र हल्सन्धिः। हल्सन्धिः इति विषये वयं तत्र बहु किमपि पठितवन्तः। इदानीं तत्र तृतीयसन्धिः करपत्रे, तत्र जष्ट्वसन्धिः इति करपत्रे, स्वरूपमहोदयस्य करपत्रे स्मः। तत्र जष्ट्वसन्धिः इति सन्धेः तत्र पाठे वयं तत्र षडाननः, तत्र षडाननः इति समस्तपदं तत् कथं भवति इति समासे तत्र कथं सन्धेः कार्यम् अस्ति इति पठितवन्तः। अत्र तत्र षष्योगः आननः इति, तेन षडाननः इति प्राप्तम् इति एतत् सर्वं पठितवन्तः। इदानीम् अग्रे तत्र अपदान्ते जष्ट्वं नाम पदान्ते जष्ट्वं भवति, अपदान्ते जष्ट्वं कथं भवति इति इदानीम् एकः एव अंशः तत्र अवशिष्यते। तम् अंशं पठित्वा तत्र अग्रे उदाहरणानि गीताप्रवेशे पठामः। अस्तु, तर्हि तत्र शुभभगिनी भवती एव आरम्भं करोति वा?
आं महोदय। अत्र अपदान्ते जष्ट्वम् इति विषयः, झलां झष् झषि इति सूत्रं तत्र अष्टमाध्याये चतुर्थपादे पञ्चाशत्तमं सूत्रं, झलां स्थाने झषादेशो भवति झषि परे, झष् प्रत्याहारे वर्गाणां तृतीय चतुर्थः च वर्णाः अन्तर्भूताः, स्थानेन्तरतमः इत्यनेन झष् वर्णेषु वर्णनिर्धारणं, झलां षष्ट्यन्तं, झषः प्रथमान्तं, झषि सप्तम्यन्तं, त्रिपदमिदं सूत्रं, तयोर्वावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं झलां झष् झषि संहितायाम् इति। इदानीं पूर्वं झलां झषः अन्ते इति सूत्रं पठितवन्तः, तत्र पदान्ते स्थितस्य झल् वर्णस्य स्थाने झष् आदेशः भवति झलां झषोऽन्ते इति सूत्रेण इति। इदानीम् अपदान्ते अपि झष्त्वं भवति केन सूत्रेण इति विषयः। झलां झष् झषि इति सूत्रे पुनः झलां झल् प्रत्याहारस्थवर्णानां झषि परे, झष् प्रत्याहारस्थवर्णानां परे झष् आदेशः भवति, झष्त्वं भवति। अपि च झष् इति प्रत्याहारः कः इत्युक्ते, वर्गीयवर्णेषु तृतीयचतुर्थ सदस्याः झष् इति नाम्ना ज्ञायते। अपि च स्थानेन्तरतमः इत्यनेन झष् वर्णेषु वर्णनिर्धारणम्, हा इत्युक्ते तत्र यथा पूर्वं पदान्ते स्थितस्य झल् वर्णस्य स्थाने झष् 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 प्रत्याहारे स्थितस्य कस्य वर्णस्य आदेशः भवति इति स्थानेन्तरतमः इत्यनेन निर्णीतम् आसीत्। तथा एव अत्रापि झष् वर्णेषु वर्णनिर्धारणं भवति, इत्युक्ते एकस्य चयनं भवति। अपि च तत्र स्थानेन्तरतमः इति स्थाने अन्तरतमः इति सूत्रम् अस्ति, तत्र इत्युक्ते तत्र स्थानिनः अनेके आदेशाः भवन्ति चेत् तेषु सदृशतमः आदेशः एव विधीयते इति। अत्र स्थाने स्थानिनः अनेके आदेशाः इत्युक्ते झष् झष् प्रत्याहारस्य सर्वे वर्णाः इदानीं स्थानिनः स्थानी योगिनः स्थानिनः भवितुम् अर्हन्ति, तेषु निर्धारणं कथं भवति इति तस्य सूत्रस्य किं तत्र तेन एतेन सूत्रेण हा विधीयते तेषु कः भवेत् इति तत्र स्थानान्तरतम इत्युक्ते तत्र तकारस्य स्थाने जष् आदेशः थकारस्य स्थाने अथवा पूर्वस्मिन् उदाहरणे अत्रैव स्वीकरोमि षकारः डी ढी उष्योगः ढी इति अस्ति अपि च तत्र तयोर्वावचि संहिताम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः इति अस्ति संहितायाम् इति सर्वत्र बहुत्र भवति संहिता इत्युक्ते सन्निहिते निकटे इति तत्र केवलम् अर्धमात्रकालः अस्ति चेत् वर्णयोः मध्ये तदा संहिता इति वदामः उष्योगः ढी इति स्थित्यां तत्र षकारः मूर्धन्यषकारः तत्र कथं ढकारः आगच्छति इति चिन्तयामः चेत् तत्र षकारः मूर्धन्यवर्णेषु तुल्यः भवति इति इत्युक्ते तत्र मूर्धन्यषकारः जश् वर्णेषु डकारस्य किं तत्र टवर्गीयवर्णाः मूर्धन्याः षकारः अपि मूर्धन्यः अतः तत्र तुल्यतमं भवति टवर्गीयवर्णाः तेषु इदानीं षकारः मूर्धन्यः इति कृत्वा टवर्गीयवर्णेषु मूर्धन्य वर्णं स्वीकरणीयं तत्र ढकारः महाप्राणः मूर्धन्यः अस्ति अतः तस्य आदेशः भवति षकारस्य स्थाने न दोषाय उक्तवती महोदय तत्र षकारस्य स्थाने डकारः एव आदेशः
पुनः
हा तत्र जश् वर्ण क्षमतां तत्र जश् किं प्रत्याहारे ग ज ड द ब इति भवति अतः तत्र षकारस्य तुल्यतमः डकारः एव अतः उष् योगः डि इत्यस्मात् उड् योगः ढि इति भवति तदनन्तरं केवलं वर्णमेलनम् उड्ढि इति भवति इति तावत् अस्ति तत्र तत्र क्षम्यतां दोषः
समीचीनमेव अस्तु समीचीनं धन्यवादः अस्तु
धन्यवादः
समीचीनं भगिनि धन्यवादः उषास्वामिनि भगिनी नमस्कारः
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 महोदय
सुजाता भगिनी नमस्कारः उषा भगिनी उषादेवता भगिनी वदतु
आपदान्ते इत्युक्ते यत्र पदं पूर्णतया नास्ति पदस्य निर्माणसमये अस्ति
सत्यं सत्यं भगिनि आमामामामां यथा तत्र समासे अपि तत्र षष्योगः आननः पद निर्माणे किन्तु तत्र समस्तपदनिर्माणे इदानीं तत्र पदनिर्माणे एव
समस्तपदम्
इति नास्ति पूर्वं षडाननः इति समस्तपदम् आसीत् अत्र समस्तपदमपि नास्ति केवलम् एकमेव पदम्
इत्युक्ते तिङन्तपदम्
तस्मिन् समये एव तत्र तत्र मध्ये आगच्छति इति अत्र प्रायशः तत्र उदाहरणानि अपि द्रक्ष्यामः भगिनि तत्र गीताप्रवेश इदानीं यतोहि तत्र अत्र बहु किम् केवलं सूत्रस्य पठनेन तत्र किञ्चित् अवगच्छामः उदाहरणानि परिशीलयामश्चेत् तत्र सर्वं स्पष्टं भवति इति मन्ये अस्तु तर्हि तत्र जष्वसन्धिः इति इदानीं तदा तत्र उदाहरणानि तत्र गीताप्रवेशे तत्र द्वात्रिंशत् तमे पुटे सन्ति ततः आरभ्य पठामः तर्हि तत्र अस्तु तत्र कः पठति उषास्वामिनी भगिनी भवती एव पठति वा आरम्भं करोति वा
सिद्धा नास्ति महोदय
तर्हि तत्र चिन्ता मास्तु भगिनि चिन्ता मास्तु निवेदिता भगिनी आरम्भं करोति वा
आमां द्वात्रिंशत् खलु जष्वसन्धि एतानि उदाहरणानि परिशीलयत तत् अधिकम् अस्माकं त अधिक तक् अधिक अ अधिक अस्माकं त अधिक अधिकं द अधिकम् अ अधिकं स्माकं तदस्माकं अत्र तकारस्य स्थाने दकारः आगच्छति
दृष्टवन्तः खलु एतत् उदाहरणं तत्र
तद्वर्गीय तृतीयव्यञ्जनं व्यञ्जनस्य आदेशः भवति तथा
अनन्तरं पदम् अस्ति न
वा स्वरः अस्ति तत्र
अतः एव तत्र वयं पठितवन्तः खलु तत्र जलां जशन्ति
तृतीयवर्गे व्यञ्जनं तवर्गे तृतीयव्यञ्जनमस्ति दकारः अत्र अतः अत्र दकारस्य आदेशः भवति
अतः तदस्माकं
तदस्माकम्
अस्तु अग्रे
अग्रे स्यात् अधिकम् आत्मतृप्तः स्या अधिकं त अधिकम् आ अधिकमतृप्तः स्या अधिकं द अधिकम् आ अधिकं स्मतृप्तः स्यादां तृप्तः स्यादात्मतृप्तः स्यादात्मतृप्तः अत्रापि तकारस्य स्थाने दकारः तृतीयव्यञ्जनस्य आदेशः भवति
समीचीनं धन्यवादः अस्तु अग्रे तत्र उषा दीवते भगिनि अग्रे
अहमपि सिद्धा अस्मि महोदय
अस्तु उषादेवते भगिनी पठतु तदनन्तरं भवती पठतु
बलात् योगः इव बलायोगः तकारयोः इकारयोः वकार बलायोगः दकारयोः इकारयोगः वकारः बलात् जलां जशोन्ते इति सूत्रेण पदान्ते जलः स्थाने जश् आदेशः भवति अतः बलात् तकारः स्थाने तस्य तद् वर्गीय तृतीयवर्णः आगच्छति अतः बलात् इव इति रूपं निष्पन्नं भवति
हा समीचीनं भगिनि हा तत्र भगिनि तत्र एकवारं तत्र करपत्रे
आं महोदय
जलां जशोन्ते इति जश्वसन्धेः प्रथमभागे तत्र हल् जल् प्रत्याहारे किं किम् अस्ति इति एकवारं पठतु भगिनि हा केवलं हा सर्वे स्मरन्तु इति हा
जल् प्रत्याहारे पञ्चमवर्गीयव्यञ्जनानि वर्जयित्वा सर्वाणि वर्गीयव्यञ्जनानि नाम अनुनासिकवर्गीयव्यञ्जनानि
अननुनासिकवर्गीयव्यञ्जनानि
अपि च श श स ह
हा इति भवति समीचीनं अपि तत्र
अत्र बलात् योः अकार इकार अ आ इ इ उ उ किमर्थं पृथक्तया दत्तमस्ति महोदय तत्र
किं भगिनि
अत्र तत् अस्माकं स्यात् आत्मतृप्तः बलात् इव तत्र अकार आकार इकार किमर्थं पृथक्तया दत्तमस्ति महोदय?
यतोहि तद् अग्रे अस्ति इति कृत्वा एव तत्र तकारस्य परिवर्तनं भवति खलु दकाररूपेण.
इत्युक्ते पदात् परे अच् स्यात् हल् स्यात् वा अपि वा महोदय?
आमामां स स्यात्, किन्तु बाधकस्वरं नास्ति चेत् भवति इति.
अस्तु महोदय.
हा
अग्रिमं पठनीयं महोदय?
पठतु भगिनि. अपि तत्र भगिनि तत्र जश् प्रत्याहारे वर्गाणाम् इति
जश् प्रत्याहारे वर्गाणां तृतीयवर्णाः इत्युक्ते ज ब ग ड द
इति. हा तावत्पर्यन्तं तदा अस्माकं मनसि भवति अस्तु अस्तु तत्र तृतीयव्यञ्जनः आगच्छति वर्गीयव्यञ्जनम् आगच्छति इति. अस्तु हा इदानीं
वाक् योगः ईशः वायोगः ककारः योगः ई योगः शकार शः अनन्तरं वायोगः गकारयोगः ई योगः शः ककारस्थाने तत् वर्गीयतृतीयव्यञ्जनमस्ति ग अतः आगीषः इति रूपं निष्पन्नं भवति.
हा समीचीनं भगिनि धन्यवादः. हा समीचीनम् अस्तु इदानीं तत्र उषास्वामिनोत्तरं भगिनि
महोदय. सम्यक् योगः उभयोः सम्यक् इति सम्य अन्ते ककारः अस्ति तत् अनन्तरम् उ इति अस्ति सम्ययोगः ककारः योगः उ भ्योः इति दत्तं. सम्यक् ककारः पदान्ते अस्ति अनन्तरम् उकारः अपि अस्ति ककारः झल् वर्णः उकारः परः अस्ति इत्यनेन ककारः जष्ट्वं भूत्वा ककारस्य स्थाने तृतीय आदेशवर्णः स्यात् इति कृते तृतीयस्तरः इति सम्यग् ककारः गकारः भवति सम्यग् उभयोः इति भवति.
सम्यग् उभयोः समीचीनम् अस्तु.
अनन्तरम् एतत् योगः फलम् एतत् इति पदान्ततकारः अस्ति एतत् योगः ऋतम् एतत् योगः ऋतम् एतत् योगः ऋतम् ऋ इति स्वरः एतत् तकारस्य स्थाने तकारः झल् वर्णः इत्यनेन तकारस्य स्थाने दकारः आयाति एतद् ऋतम् इति अस्ति एतद् ऋतम्
एतद् ऋतम् अस्तु. अग्रे वाक्यं यदस्ति वाक्यद्वयमस्ति तदपि पठनीयम्.
एतेषु उदाहरणेषु वर्गीयव्यञ्जनेभ्यः परतः स्वराः सन्ति वर्गीयव्यञ्जनेभ्यः झल् इति अस्ति परतः स्वराः सन्ति तत्र व्यञ्जनस्य स्थाने तद् वर्गीयतृतीयव्यञ्जनम् आदेशः भवति तत्र व्यञ्जनस्य स्थाने तत्तद् वर्गीय तृतीयव्यञ्जनम् आदेशः भवति तकारः स्थाने ग इति भवति तकारस्थाने तत्तत् वर्गीयव्यञ्जन दकारः भवति
समीचीनम् अतः तत्र तृतीयव्यञ्जनस्य आदेशः
भवति
समीचीनं भगिनि. हा अस्तु उत्तमम् अस्तु धन्यवादः. अस्तु अग्रे तत्र हर्षदभगिनी अग्रे पठति वा इदानीम्?
आं महोदय. एतानि उदाहरणानि परिशीलयत. पृथक् अधिकबालाः पृथ अधिककारः अधिक बकारः अधिक आलाः पृथ अधिकगकारः अधिकबकारः अधिक आलाः. अत्र जलवर्णस्य परतः मृदुव्यञ्जनमस्ति अतः जश् भवति. सम्यक् अधिक व्यवस्थितः सम्य अधिककारः अधिकवकारः अधिक व्यवस्थितः सम्य अधिकगकार गकारः अधिकवकारः अधिकव्यवसितः. अत्रापि ककारस्य अग्रे वकार इति मृदुव्यञ्जनमस्ति अतः ककारस्य जष्ट्वभूत्वा तत्र गकारः आगच्छति सम्यक् व्यवस्थितः इति.
समीचीनं भगिनि, अस्तु,
धन्यवादः.
इति अस्ति तर्हि तत्र ककारः अस्ति, तदनन्तरं तत्र वकारः अस्ति, तत्र वकारः तत्र अस्ति चेदपि तत्र किं भवति, तत्र
जष्ट्वो भवति,
जष्ट्वं
तृतीयव्यञ्जन झल् अस्ति चेत् तृतीयव्यञ्जनम् आगच्छति.
हा इति समीचीनं भगिनि, अस्तु अस्तु, धन्यवादः. अस्तु अग्रे तत्र सुजाता भगिनी अग्रे पठति वा?
आं महोदय. यत् योगः गत्वा य योगः तकारः योगः गकारः अथवा तक जलां शृण्वन्ति इत्यनेन तकारः स्थाने दकारः आयाति. यकार य दकारः योगः गकारः योगः अथवा यद् गत्वा तकारस्थाने गकारः आयाति.
हा समीचीनम्, अस्तु अग्रे.
बलवत् योगः दृढं, बलवा योगः तकारः योगः दकारः दृढं, बलवा योगः तकारस्थाने दकारः आयाति. दकार अनन्तरं स्वरः अस्ति दृढं, बलवद्दृढं.
समीचीनं भगिनि, धन्यवादः.
धन्यवादः.
समीचीनं, बलवद्दृढम् अस्तु, समीचीनं. वेदा भगिनी नमस्कारः.
नमस्कारः महोदय. कुत्र अस्ति केन?
वयं पुस्तके स्मः भगिनि, पुस्तके तत्र द्वात्रिंशत्तमे पुटे स्मः.
अस्तु, द्वात्रि
द्वात्रिंशत्तमे पुटे. अस्तु अग्रे, शोभा भगिनी अग्रे.
आं महोदय. बुद्धियोगात् योगः धनञ्जय, तत्र बुद्धियोग योगः पदान्ततकारः, परे धनञ्जय इत्यस्य धकारः, योगः अनञ्जय इति. तत्र तकारस्य स्थाने तत्तत् वर्गस्य तृतीय वर्णः आगच्छति इति. तवर्गस्य तवर्गीयव्यञ्जनमस्ति तत्र, अतः धकारः तृतीयवर्णः आगच्छति. बुद्धियोगा योगः दकारः, तदनन्तरं धनञ्जय. बुद्धियोगात् धनञ्जय इति अन्तिमरूपं भवति. स्मृतिभ्रंशात् योगः बुद्धिनाशः, तत्र स्मृतिभ्रंशात् इत्यस्य अन्तिमतकारः, तस्य योगे बुद्धिनाशः इत्यस्य बकारः, तत् योगः बुद्धिनाशः. तत्र तकारस्य स्थाने पुनः दकारादेशः भवति, तृतीय वर्गस्य तृतीय तकार तवर्गीयवर्णस्य तृतीयवर्णः. स्मृतिभ्रंशाद् बुद्धिनाशः इति, स्मृतिभ्रंशात् बुद्धिनाशः इति एव भवति.
समीचीनं. तत्र तकारः तत्र झल् मध्ये अस्ति, बकारः जष् मध्ये अस्ति, तर्हि तत्र जलं जषन्ति इत्यनेन.
किन्तु अत्र तु पदान्ते इति मन्ये महोदय?
आमां भगिनि, क्षम्यताम्, आमां तत्र पदा हा, तर्हि जलां जषन्ति इति,
जलां जषन्ति,
हा हा जलां जषन्ति, हा हा, तत्र जलां जश् जशि इति न,
हा तत् जलां
जषन्ति
अपदान्ते इति भवति इति कृत्वा.
आम् आमां, तत्र भवती पठितवती अपदान्ते, किन्तु एतत् पदान्ते, अतः पूर्वं गतवर्गे यत् पठितवन्तः तदेव खलु, जलां जश् हा जलां जषन्ति इत्यनेन. अस्तु समीचीनम्, अस्तु अग्रे. तत्र वेदा भगिनी अग्रे पठति वा?
आं महोदय.
केचित् केचित् भीताः,
केचित् योगः भीताः, केचि योगः तकारयोगः भकारयोगः ईताः तत्र तकारभकारयोगेन तत्र जष्ट्वं भूत्वा तकारस्य स्थाने तृतीयवर्णः दकार आयाति तत्र केचि योगः दकारयोग भकारयोग ईताः केचिद् भीताः इति रूपम् आयाति केचित् भीताः अग्रे एतत् योगयोनिनि योनिनि एतत् योगयोनिनि तत्र एत योगः तकार योगः यकार योगः ओनिनि ओनिनि या तत्र अपि तकार अस्ति तत्परे यकार अस्ति एतत् योनिनि पदान्ते पदान्ते तकारः पर यकार अस्ति जष्ट्वं भूत्वा जलां जशोन्ते इति सूत्रेण अन्ते यत् तकार अस्ति तस्य स्थाने दकार आयाति तृतीयवर्णः सवर्ण तृतीयवर्णः दकार एतद् योनिनि एतद् योनिनि इति अन्तिमरूपम्
समीचीनं भगिनि हा समीचीनं हा तर्हि तत्र यो यकारः अस्ति इति कृत्वा तत्र तकारस्य परिवर्तनं दकाररूपेण भवति समीचीनं हा अस्तु धन्यवादः अस्तु अग्रे तत्र हा निवेदिता भगिनी अग्रे पठति वा
आम् यत् अधिकं राज्यसुखलोभेन य अधिकं तकारः अधिकं रेफ् अधिकं आज्यसुखलोभेन य अधिकं दकारः अधिकं रेफ् अधिकम् आज्यसुखलोभेन यत् राज्यसुखलोभेन तत्रापि तकारस्य स्थाने दकारः आयाति तकारः अस्ति परः रेफ् अस्ति अतः तवर्गस्य तृतीयव्यञ्जनं दकारः दकारस्य आदेशः भवति दकारमध्ये दकार अधिकं रेफ् अतः यत् यत् राज्यं संयोगं भवति अधिकधीः अ अधिकं पकारः अधिकं धकारः अधिकं इः अ अधिकं बकारः अधिकं धकारः अधिकं इः अत्र पवर्गस्य तृतीयव्यञ्जनमस्ति पफ ब बकारः परवर्ण अस्ति धकारः मृद्व्यञ्जनमस्ति तथ धन प्रवर्गस्य चतुर्थं व्यञ्जनमस्ति मृद्व्यञ्जनमस्ति अतः बकारः बकार आदेशः भवति अब्धिः इति रूपम् एतेषु उदाहरणेषु वर्गीयव्यञ्जनेभ्यः परतः मृदुव्यञ्जनानि सन्ति तत्र व्यञ्जनस्य स्थाने तद्वर्गीयतृतीयव्यञ्जनस्य व्यञ्जनम् आदेशसम्पन्नः
अतः तत्र मृदुव्यञ्जनम् इति अग्रे भवति चेत् तत्र तृतीयवर्गीयव्यञ्जन आदेशस्य आदेशः भवति समीचीनं हा धन्यवादः भगिनि अस्तु
धन्यवादः
अग्रे तत्र उषा दिवति भगिनी अग्रे पठति वा
आं महोदय एतानि उदाहरणानि परिशीलयत स्यात् योगः जनार्दन स्या योगः तकारयोगः जकारयोगः अनार्दन शुत्वसन्देहे निमित्तम् अस्ति पदस्य अन्ते स्यात् पदस्य अन्ते तकारः अस्ति शुत्वसन्धि इत्युक्ते स्तोः श्चुनश्चुः इति सूत्रेण सकारस्य त वर्गस्य च स्थाने शकारस्य अपि च च वर्गस्य च आदेशः भवति इति पठितम्. अत्र स्यात् तत्र तकार अस्ति अन्तिम अक्षरं, तस्य स्थाने स सकारस्य त वर्गस्य इत्युक्ते त वर्गस्य च वर्ग आदेशः भवति. प्रथम च वर्णः आगच्छति, अतः स्या योगः चकारयोगः जकारयोगः अनार्दनः अनन्तरं शुक्रसन्धिः जष्ट्वसन्धेः निमित्तम् अस्ति. अनन्तरम् अत्र प्याच् जनार्दन इति स्वीकुर्मः चेत् चकारः अन्तिमवर्णः अस्ति. जलां जशोन्ते इति सूत्रेण झल् स्थाने जश् आदेशः भवति, अतः चकारस्य स्थाने तत् वर्गीयतृतीयव्यञ्जनम् आगच्छति, च च झ इति. अतः स्या योगः जकारयोगः जकारः योगः अनार्दनः जष्ट्वसन्धिः भूत्वा जलां स्थाने जश् आदेशः इति भूत्वा प्याज् जनार्दनः इति अन्तिमरूपं निष्पन्नं भवति.
सम्यक् अस्ति, सम्यक् अस्ति भगिनि. नाम प्रथमवाक्ये तत्र किमुक्तं, प्रथमपङ्क्त्यां किमुक्तं, तत्र स्तुत्वसन्धेः निमित्तम् अस्ति, नाम स्तुत्वसन्धिः भवति तत्र इति. द्वितीयपङ्क्त्यां तत्र स्तुत्वसन्धि कृत्वा रूपं किं भवति इति उक्तमस्ति, तस्मिन् सन्दर्भे तत्र जष्ट्वसन्धेः निमित्तं भवति, नाम तत्र जष्ट्वसन्धिः करणीयः इति उक्तः. तृतीयपङ्क्त्यां तत्र अस्तु इदानीं जष्ट्वसन्धिः कुर्मश्चेत् किं रूपं भवति, नाम स्या योगः जकारः योगः जकारः योगः अनार्दना इति उक्तं, तर्हि अन्तिमरूपं स्याद् जनार्दना इति भवति. समीचीनं भगिनि, अस्तु अग्रिमम्.
यत् योगः ज्ञात्वा, यत् योगः ज्ञात्वा, यकारयोगः तकारयोगः जकारयोगः ज्ञात्वा तत्रापि स्तुत्वसन्धेः निमित्तं भवति, अतः स्तोः स्टुनाष्टुः इति सूत्रेण तकारस्य स्थाने चकारः आगच्छति प्रथमवर्णः. अनन्तरं चुत्वसन्धि भूत्वा यकारयोगः चकारयोगः जकारयोगः ज्ञात्वा इति रूपं निष्पन्नं भवति. अनन्तरं जष्ट्वसन्धि करणीयं तत्र, किमर्थम् इत्युक्ते जष्ट्वसन्धेः निमित्तम् अस्ति, अतः चकारस्य स्थाने जलां जषन्ते इति सूत्रेण चकारस्य तृतीयवर्णः तत्तत् वर्गीय तृतीयवर्णः आगच्छति इत्युक्ते चकारस्य स्थाने झ इति आदेशः जलां जषन्ते इति स्थाने जश् आदेशः भूत्वा चकारस्य स्थाने जकारः आगच्छति. अतः यकारयोगः जकारयोगः जकारयोगः ज्ञात्वा जष्ट्वसन्धि भूत्वा यज्ञात्वा इति रूपं निष्पन्नं भवति.
यज्ञात्वा इति समीचीनं. अग्रे वाक्यम्.
एतेषु उदाहरणेषु स्तुत्वसन्धौ सति जष्ट्वसन्धिः सम्पन्नः.
अर्थः कः?
एतेषु उदाहरणेषु इत्युक्ते पूर्वं दत्तम् उदाहरणं स्याद् जनादन अपि च यज्ञात्वा इति. शुष्वसन्धौ सति, शुष्वसन्धौ भवति अपि च अनन्तरं जष्ट्वसन्धि भूत्वा रूपं.
तत्र समीचीनं, शुष्वसन्धौ सति, सतिसप्तमी यदा शुष्वसन्धि कुर्मः, यदा शुष्वसन्धिः भवति तदा जष्ट्वसन्धेः कार्यमपि भवति, भवति. नाम तत्र शुष्वसन्धिः प्रथमतया करणीयः, नो चेत् तत्र जष्ट्वसन्धेः कार्यं नास्ति तत्र. किन्तु यदा जष्ट्व अस्तित्वसन्धिः भवति तदा जष्ट्वसन्धेः कार्यमपि तत्र भवति इति. अस्तु, समीचीनं भगिनि, धन्यवादः.
अस्तु महोदय, अत्र एकः सन्देहः अस्ति, अहं प्रष्टुमिच्छामि. नीलेश महोदय, बोडस् महोदय, एकवारं पदान्ते हलसन्धिः इति वीडियोस् 18 वीडियोस् सेट् हि सेण्ट्, तत्र सः वदति किमपि अस्ति च, यदा कदा हलसन्धि अस्ति तदा प्रथमं जष्ट्व एव करणीयम्. हा, अतः अत्र स्यात् जनार्दन अस्ति चेत् तत्र प्रथमं स्यात् इत्यस्य स्याद् एव करणीयम्, अनन्तरं दकारस्य जकार च्युत्वा सन्धि कृत्वा करणीय इति तस्य मतम् अस्ति.
अस्तु भगिनि, समीचीनमेव.
हियर् वी हव् डन् फस्ट्
प्रथमम् अवगच्छामि, किन्तु चिन्ता मास्तु, अस्तु, तदपि भवति. अस्तु, किन्तु तत्र प्रायशः तत्र किमर्थं तत् करणीयम् इति तत्र प्रायशः तत्र किं तस्य
संख्या 8239 सूत्रसङ्ख्या 8239 जलां जशोन्ते इत्येव प्रथमं करणीयम्, अनन्तरमेव श्चुत्व सन्ति 8440 सो या
अहमत्र टेबल् द्रष्टुं शक्नोमि नीलेश महोदयस्य. सः उक्तवान् प्रथमं जष्ट्व करणीयम्, अनन्तरं सेकेण्ड् स्टेप् लत्व सत्व पूर्वसवर्ण नमुडागम अनुस्वार
भगिनी एकनिमिषः, तत्र भवती तत्र बहु अग्रे आगतवती, बहु अग्रे गतवती. इदानीं सोपानेन गच्छामः. अस्मिन् उदाहरणे तत्र सन्धिकार्यद्वयमस्ति, समीचीनम्. अत्र सन्धिकार्यं त्रयमपि भवेत्, चिन्ता मास्तु. इदानीम् अस्माकं कार्यं केवलं प्रत्येकसन्धिः कथं करणीयः इति एव अस्माकं विषयः.
अत्र अस्तु,
तदनन्तरं वयं तत्र चर्चयामः तत्र क्रमः किं कः भवेत् किं किम् इति अग्रे ज्ञास्यामः. इदानीं यदि तादृशी चर्चा भवति तत्र क्लेशः उद्भवति भगिनि.
अस्तु 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 अस्तु
खलु नाम तत्र न यद् भवती उक्तवती समीचीनमेव, किन्तु तत्र सोपानेन गच्छामः. इदानीं तत्र प्रत्येकसन्धिः तस्य रूपं किम्, ते तत्र प्रयोगः कथं भवति इति अस्माकं स्तरः तु तत्र किं प्रवेशस्तरः.
अस्तु अस्तु अस्तु, क्षम्यतां महोदय, ज्ञातवान्.
न भगिनि, नाम केवलं यदि तत्र किं भवति, यदि वयं चिन्तयामः एषः विषयः बहु क्लिष्टः इति चिन्तयामः, वयम् अग्रे न गच्छामः. अतः तत्र यत् नीलेश महोदयस्य बहु सम्यक् अस्ति, किन्तु तत् यदि एकवारं वयं विषयं जानीमः तदनन्तरं यदि तस्य पाठं पठामः तदा सम्यक् भवति.
अस्तु अस्तु,
अवगच्छति खलु तत्र. तत्र अड्वान्स्ड् आर्गानिक् केमिस्ट्रि इदानीं मास्तु, प्रथमतया केमिस्ट्रि इत्युक्ते किम् इति ज्ञास्यामः.
अवगतवती, चिन्ता मास्तु, धन्यवादः.
यत् भवती उक्तवती समीचीनमेव, नाम तस्य लिङ्क् वाट्साप् ग्रूप् मध्ये निश्चयेन प्रेषयतु, यतोहि लाभः अस्ति, किन्तु अग्रे तत् पठामः.
अस्तु 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 अस्तु
अस्तु भगिनि, धन्यवादः. अस्तु, अग्रे तत्र चित्रसन्धिः दश. इदानीं तत्र हर्षद भगिनी भवती एव खलु, इदानीं भवती एव भवत्याः कार्यमेव इदानीं.
आमाम्, एतानि उदाहरणानि परिशीलयत. एत अधिकतकार, एत अधिकदकार, एतद्. अत्र पदान्ते तकार अस्ति, तस्य जष्ट्व भूत्वा तृतीय तवर्गस्य तृतीयवर्णदकार आगच्छति. वाक् वा अधिक ककार वा अधिक गकार अत्र अपि पदान्ते ककार अस्ति जल वर्ण अस्ति तस्य जष्टो भूत्वा क वर्गस्य गकार इति तृतीय वर्ण आगच्छति पदान्ते जष्टो अस्ति
अस्तु अग्रे तत्र सरलमेव अस्ति अतः भवती एव पठतु अग्रे
अस्तु अस्तु लिट् अधिक लिट् लि अधिक टकार लि अधिक डकार अत्र अपि टकारस्य जष्ट्व भूत्वा ट वर्गस्य तृतीयवर्ण ड आगच्छति एतद् अधिक डकार एतत्तु चर्त्वसन्धेः उदाहरणमस्ति डकारस्य तकार भवति खलु महोदय पश्यतु एतद् वा चत्व अस्ति खलु
तत्र तत्र अधोभागे पठतु भगिनि तत्र यत् विवरणं दत्तमस्ति
आम् आम् अत्र यमगणनानां विना पदान्ते स्थितस्य वर्गीयप्रथमव्यञ्जनस्य अवसाने सति तद्वर्गीयं तृतीयं व्यञ्जनम् आदेशः सम्पन्नः तृतीयस्य च प्रथमम् अवसानं परत्र वर्णाभावः महोदय अत्र ते दत्तवन्तः प्रथमवर्णं परन्तु झल् अस्ति पदान्ते चेत् तस्य जज् भवति इत्येव नियमः झल् वर्ण अस्ति पदान्ते चेत् तस्य तत्तत् वर्गस्य तृतीयवर्ण तत्र आगच्छति चतुर्थ पञ्चमे षष्ठे उदाहरणे तृतीयवर्ण अस्ति पदान्ते तस्य चर्त्व भूत्वा प्रथमवर्णम् आगच्छति इति अहं ज्ञातुं शक्नोमि अहं वक्तुं न शक्नोमि परन्तु
सर्वसानयोर्विसर्जनीयसूत्रेण तद् भवति
वावसाने खलु
वावसाने विसर्जनीय कुत्र अस्ति अत्र
विसर्गस्य स्थाने विसर्जनीयः इति भवति सः इति
जलान्तिष्ठोक्ते तत्पश्चात् वावसाने
तत्र वावसाने इत्युक्ते परत्र वर्णाभावः अवसानं वर्णाभावः तस्मात् परं किमपि नास्ति चेत् वावसाने इति सूत्रेण तद् वर्गस्य प्रथमवर्णः पुनः आगच्छति
तत्र करपत्रे दत्तमस्ति भगिनि वयं पठितवन्तः तत्र एकवारं पठतु भगिनि हर्षद भगिनि तत्र करपत्रे
महोदय अहं उद्घाटयामि करपत्रम् अहं करपत्रम् उद्घाटयामि करपत्रे
करपत्रे तत्र जष्ट्वसन्धि इति तृतीय तत्र तत्र भगिनि तत्र सामान्यतया इति आरभ्य परिच्छेदः एकः अस्ति
सामान्यतया लोके पदान्ते इत्युक्ते सुबन्तपदस्य अन्ते अथवा तिङन्तपदस्य एतादृशेषु स्थलेषु सुप्तिङ्गन्तं पदं 1414 इति सूत्रेण पदसङ्ख्या यथा प्रथमाविभक्तौ विद्युत् इति सुवन्तपदं तस्य अन्ते च तकारः अतः पदान्ते झलां जशोन्ते 8239 इत्यनेन तकारस्य स्थाने डकारः विद्युत् इति भवति एवमेव तिङन्ते अगच्छत् इत्यस्मिन् तकारः पदान्ते इति कृत्वा तकारस्य स्थाने दकारः अगच्छद् इति भवति तदा उभयत्र वावसाने 8456 इत्यनेन विकल्पेन चर्त्वादेशः अतः विद्युत् अगच्छत् इति रूपे अपि भवति किन्तु पदसंज्ञा केवलं सुबन्तस्य अथवा तिङन्तस्य इति न
तावत् पर्यन्तं भगिनि नाम तत्र वावसाने इत्यनेन तत्र
विकल्पेन प्रथमं वर्णं वा तृतीयवर्णं वा भवति
नाम तत्र पूर्वम् अत्र भवती यत् पठितवती तत्र एतद् इति यदस्ति प्रथमतया एतत् इति आसीत् तदनन्तरम् एतत् इति अभवत् पुनः एतत् इति भवितुम् अर्हति इति वक्तुम् इच्छन्ति इति मन्ये तावदेव
इत्युक्ते एतानि शब्दानि तु वर्णानि तु इण्टर्चेञ्जेबल्
इति अस्ति
अवसाने अस्ति चेत् इण्टर्चेञ्जेबल्
इति ज्ञातव्यः समीचीनम्
अस्तु
अग्रे गीताप्रवेशे
अग्रे अहं पठितवती खलु अत्र यमगणनां विना पदान्ते स्थितस्य
किन्तु तत्र उदाहरणद्वयम् आसीत् अतः वाग् तदनन्तरं लिड्
आमां वाग् वाग् वा अधिकगकार वा अधिककार वाक् अत्र अवसान अस्ति अतः गकारस्य स्थाने तत् वर्गीय प्रथमं वर्ण ककार आगच्छति लिड् लिड् लि अधिक डकार लि अधिक टकार लिट् अत्र डकार अस्ति तृतीयवर्णम् अवसान अस्ति अतः तृतीयवर्णस्य स्थाने प्रथमवर्णं वर्णः टकार आगच्छति
इति अस्ति समीचीनं
विकल्पेन
विकल्पेन अतः तत्र पूर्वं तत्र यत् तत्र पूर्वस्मिन् पुटे तत्र वाक् इति आसीत् वाक् योगः ईशः वागीशः इति आसीत् अतः अत्र तत्र यत्र अग्रे किमपि अस्ति तत्र वागीशः इति एव रूपं भवति किन्तु केवलं वाक् इति अस्ति चेत् वाग् अपि भवितुमर्हति वाक् इति
वाग् अपि भवितुम् अर्हति अवसान अस्ति चेत् अस्माकं हस्ते विकल्पः अस्ति यत्किमपि अस्माकं विवक्षा अस्ति तत् करणीयम् इति
अस्ति समीचीनं तावदेव
धन्यवादः
अग्रे तत्र उषास्वामिनी भगिनी अग्रे
महोदय एतानि उदाहरणानि परिशीलयत षट् योगः आननः षकारस्य अन्तिमषकारस्य स्थाने डकार आदेशः भवति षड् आननः इति भवति षडाननः इति भवति षष् आननः अस्माकं करपत्रमपि दत्तं जलां जशोन्ते इत्यनेन षट् षष्ठाने षकारस्य स्थाने षड् भवति षडाननः इति भवति
अतः तत्र एतत् उदाहरणम् अत्र अस्ति इति कृत्वा एव तत्र करपत्रे तत् स्थापितमस्ति
आं महोदय
अग्रे
षष् योगः भ्यां षष् शक अन्तिमशकारस्य स्थाने पुनः डकारः आयाति तृतीयवर्णः षड् योगः भ्याम् इति भवति षड् भ्याम् इति भवति तदपि जलां जशोन्ते इत्यनेन द्विष् योगः भ्यां द्विष् द्विष् इति शकारस्य स्थाने अनन्तरं भकारः अस्ति द्विष् भ्याम् अपि दिसरल् भ्याम् इति ओके भ्यां परः अस्ति इत्यनेन द्विष् इति अपि पदसंज्ञा भवति द्विष् भ्यां द्विड् भ्याम् इति भवति अत्र पदान्ते शकारस्य भ्यां भ्याम् ओके अत्र पदान्ते स्थितस्य शकारस्य स्वरे परः परः अस्ति ओ प्रथमम् आननः अनन्तरं मृदुव्यञ्जने सति मृदुव्यञ्जने अत्र भ्यां भकारः भवति द्वयोः उदाहरणयोः स्वरः परः अस्ति मृदुव्यञ्जनपरः अस्ति शकारस्य परः तत् शकारस्य स्थाने डकार आदेशः भवति जलां जशोन्ते इत्यनेन
इति भवति समीचीनं भगिनि तत्र तत्र करपत्रे तत्र भिस् इति स्वीकृतम् अत्र भ्याम् इति अस्ति
भ्याम् इति
अस्तु अन्तिमम्
ऋतुव्यञ्जने ओके एतानि उदाहरणानि परिशीलयत षट् इति षट् महोदय
षड्भ्यां कृतवती न
द्विष् व्याम् अपि व्याम् अपि कृतवती अनन्तरमेव अत्र
पदान्ते
स्थितस्य शकारः
क्षम्यतां क्षम्यताम् अहं तत्र चिन्तितवान् तत्र षड्भ्याम् इति अस्तु धन्यवादः भगिनी हा अस्तु
धन्यवादः
धन्यवादः अस्तु अग्रे तत्र वेदा भगिनी अग्रे करोति वा
महोदय एतानि उदाहरणानि परिशीलयत षष् भवति षट् षड् द्विष् भवति द्विट् द्विड् तद् वावसाने सूत्रेण तत्र विकल्पेन रूपद्वयम् आयाति षट् एवं षड् द्विष् इत्र द्विट् द्विड् द्विष् प्रथमतया द्विड् भवति वा अवसाने इति सूत्रेण अवसानं भूत्वा तत्र अवसानम् अस्ति इति कारणेन तत्र डकारस्य स्थाने चत्वं भूत्वा द्विट् भवति वा इति कारणेन विकल्पेन रूपद्वयम् आयाति अत्र पदान्ते स्थितस्य सकारस्य टकारो डकारो वा सम्पन्नः अतः ञमङ्गणनान् विना पदान्ते स्थितस्य तस्य किमर्थं तस्य उल्लेखनं कृतमस्ति तत्र ञमङ्गणनान्
तत्र अननुनासिकवर्णानाम् इति भवति
अननुनासिकवर्णानां ओके ओके अनुनासिकवर्ण त्यक्त्वा अन्य ओके ओके स्थितस्य वर्गीयव्यञ्जनस्य स्वरे मृदुव्यञ्जने हसि च परे तद् तत्तद् वर्गीय तृतीयव्यञ्जनम् आदेशो भवति अवसाने तु तद्दत् वर्गीयप्रथमव्यञ्जनस्य तृतीयव्यञ्जनम् आदेशो भवति तृतीयस्य च प्रथमम् पदान्तस्य सकारस्य डकारो भवति अवसाने तु तकारो डकारो वा इति
किन्तु सुशब्दैः वदतु
तत् किं किं तत्र किं दत्तमस्ति चेत् ञमङ्गणनां विना पदान्ते स्थितस्य वर्गे व्यञ्जनस्य स्वरे मृदुव्यञ्जने हसि च परे तद्दद्वर्गीय तृतीयव्यञ्जनम् आदेशो भवति तद् जलां जशोन्ति इति सूत्रेण तत्र तृतीयव्यञ्जनम् आयाति तत्र अवसाने तु यत्र अवसानमस्ति तत्र तु तद्वर्गीयव्यञ्जनस्य प्रथमव्यञ्जनस्य तृतीयव्यञ्जनम् आदेशो भवति वा अवसाने इत्युक्ते तद्दत् वर्गीय प्रथमव्यञ्जनस्य तृतीयव्यञ्जनम् आदेशो भवति तृतीयस्य च प्रथमम् अस्तु अस्तु वा अवसाने इत्युक्ते विकल्पेन तृतीयव्यञ्जनमस्ति चेत् तस्य प्रथमव्यञ्जनं भवति प्रथमव्यञ्जनमस्ति चेत् तस्य तृतीयव्यञ्जनं भवति तदेव पदार्थस्य षकारस्य प्रथमतया यदि डकार भवति अवसाने अस्ति चेत् डकारस्य स्थाने टकार अपि भवति इति
समीचीनं भगिनि अग्रे तत्र अस्मिन्
वर्गीयतृतीयव्यञ्जनानि आदेशाः भवन्ति अस्मिन् सन्धौ वर्गीयतृतीयव्यञ्जनानि आदेशाः भवन्ति तेषां च ग्रहणं जष् प्रत्याहारेण भवति अतः जष्वसन्धिः इति नाम अत्र जष्वसन्धिः इति उक्तं पर तस्य नामकरणं किमर्थम् इति तस्य विवरणं दत्तमस्ति तत्र वर्गीयव्यञ्जनानि आदेशाः भवन्ति तेषां च ग्रहणं जष् प्रत्याहारेण भवति जलां जष् जशोन्ते इति जष् इति प्रत्याहारेण भवति अतः जष्वसन्ति इति उक्तं तस्य नामकरणमस्ति जष्वसन्धिः इति
अस्ति समीचीनं
अग्रे
तावत्पर्यन्तं समीचीनं भगिनि धन्यवादः अस्तु अस्तु अग्रे तत्र सुजाता भगिनी अग्रे करोति वा?
आम् महोदय. रिक्तस्थानानि पूरयत. वाक् योगः भाषणं भूषणं क्षम्यतां महोदय भूषणं वाग् भूषणं ककारस्य स्थाने गकारः आयाति जलां जशन्ते इत्यनेन वर्गीय तृतीयवर्णः भवति गकारः परः बकारः मृदुव्यञ्जनमस्ति इत्यनेन वाग् भूषणं भवति वाग्भूषणं
समीचीनं भगिनि वाग्भूषणं समीचीनम् अस्तु अग्रे
पृथक् योगः भवति ककारः स्थाने गकारः आयाति पृथक् भवति जलां जशन्ते इत्यनेन ककारस्य स्थाने गकारः आयाति अग्रिमं मरुत् वहति मरुत् तकारः अस्ति तकारः स्थाने दकारः आयाति मरुद् वहति जलां जशन्ते इत्यनेन अग्रिमम् अपश्यदेवदेवस्य अपश्यत् इत्यनेन तकारस्य स्थाने दकारः आयाति अपश्यत् एव देवस्य
तत्र देवदेवस्य इति वा कोऽपि जानाति वा तत्र तकारस्य
अद्वित्वमस्ति महोदय
अद्वित्वमस्ति चेत् तत्र प्रायशः दकारः प्रायशः
दकारस्थाने फिर् दकारस्य स्थाने तकारः एव भवति न महोदय
न किन्तु द्वित्वमस्ति खलु भगिनि तत्र देवदेवस्य इति भवेत् एव देवस्य इति नास्ति इति मन्ये
अपश्यत् देवदेव
अपश्यत्
देवदेवस्य सो तकारस्य स्थाने दकारः आयाति इत्यनेन द्वित्वम् आयाति उदर अपश्यत् देव
इति चिन्तयामि भगिनि समीचीनं खलु तत्र एकवारं देवदेवस्य इति भवेत् अस्तु अस्तु धन्यवादः भगिनि अस्तु समीचीनं अग्रे धन्यवादः भगिनि अस्तु अग्रे तत्र शोभा भगिनी अग्रे
आं महोदय दिक् योगः अम्बरः दिक् इत्यस्य पदान्तककारस्य स्थाने कवर्गीयस्य तृतीयवर्णः गकारः दिग् योगः अम्बरः दिगम्बरः इति भवति अग्रिमं पदं दत्तमस्ति भयाद्रणादुपरतम् इति तत्र भयात् योगः रणात् योगः उपरतम् इति पदविच्छेदः भवेत् भयात् इति पदान्ततकारः रणात् इति पदान्ततकारः तदनन्तरम् उपरतं तत्र पदान्ततकारस्य दकारादेशः रणात् पदान्ततकारस्य दकारादेशः भयाद् रणाद् उपरतम् इति भवति वर्णमेलनेन भयाद् रणाद् उपरतम् इति पदं भवति अग्रे अपि करोमि वा जगद्गुरुः इति पदं दत्तं जगत् योगः गुरुः इति पदच्छेदः भवति तत्रापि जगत् इति पदान्ततकारः तत्र पूर्वेषु अपि अत्रापि झलां झषोन्त इत्यनेन तकारस्य स्थाने वर्गीय तृतीयवर्णः दकारादेशः जगद्योगः गुरुः जगद्गुरुः इति भवति. अग्रे तस्माद् युध्यस्व तस्माद्युध्यस्व इति तत्र तस्मात् युध्यस्व इति भगवद्गीतायाम् अस्ति. कृष्णः वदति अर्जुनं प्रति तस्मात् इत्यस्य पुनः पदान्ततकारस्य दकारादेशः तस्माद् युध्यस्व इति तत्र दकारः अपि च युकारः तस्माद्युध्यस्व इति भवति. तस्माद् इत्यस्य दकार युकारः तस्माद्युध्यस्व इति भवति. अग्रे मधु लिड्डयते, मधु लिड्डयते इति पदं तत्र मधु लिट् इति एकं पदम् अस्ति. मधु लिट् योगः डयते इति भवेत् पदच्छेदं. मधु लिट् इत्यस्य पदस्य पदान्ते टकारः, तस्य वर्गीय तृतीयवर्णः भवति डकारः, अतः मधु लिड् इति भवति. मधु लिड् योगः डयते वर्णमेलनेन मधु लिड्डयते इति भवति. अन्तिमं वेदान्तकृद्वेदविदेव वेदान्तकृद्वेदविदेव इति वेदान्तकृत् वेदवित् एव इति भवेत्. वेदान्तकृत् इत्यस्य पदान्ततकारस्य दकारः वेदान्तकृद् इति भवति. वेदवित् इत्यस्य वेदविद् इति भवति तकारस्य दकारादेशः. अपि च एव अन्ते वर्णमेलनेन वेदान्त इदानीं दकारः द्वयोः पदयोः, अतः वेदान्तकृद्वेदविदेव इति भवति पदम्.
समीचीनं वेदान्तकृत् तत्र तकारस्य दकाररूपेण परिवर्तनं, पुनः वेदवित् तस्यापि वेदविद्वद्दे वेदविदेव इति अपि. हा समीचीनं. तर्हि तकारादेशः इति अस्ति. अस्तु समीचीनं. तर्हि तत्र प्रायशः तत्र अत्र किं तत्र उदाहरणानि बहु सम्यक् सन्ति इति मन्ये, नाम तत्र सर्वविध सन्दर्भः तत्र दृश्यते खलु तत्र. अतः तत्र करपत्रे यत् यत् लिखितं तत्सर्वम् अत्र दत्तमस्ति, अपि तत्र साम्यमस्ति, नाम करपत्रम् अपि तत्र उदाहरणानि तयोः मध्ये. अतः समीचीनमस्ति. इदानीं तत्र प्रश्नः अस्ति वा अस्मिन् विषये? तर्हि अग्रे सरेम. तत्र चर्त्वसन्धिः इति तत्र करपत्रे अपि तत्र अग्रिमं तत्र चर्त्वसन्धिः इति एव अस्ति. अतः तत्र समीचीनमस्ति. तदनन्तरं तत्र अनुस्वारसन्धिः अनुनासिकसन्धिः सत्य समीचीनम् अस्तु. अनुनासिकः अनुस्वारः समीचीनम् अस्तु. तत्र अस्माकं सन्धिकार्यं तु दीर्घमस्ति. नाम तत्र गीताप्रवेशे प्रथमतया सन्धिकार्यं, अतः अनन्तरं तत्र सतिसप्तमी अन्यानि अन्ये विषयाः अग्रे सन्ति, किन्तु प्रथमतया सन्धिकार्यम्. अस्तु तर्हि इदानीम् अग्रे तत्र हा निवेदिता भगिनी अग्रे पठति वा तत्र चर्त्वसन्धिः इति करपत्रे.
आम्. चर्त्वसन्धिः खरी च 8455 चलस्थाने चरादेशो भवति खरीपरे. खरी सप्त्यमन्तं च अव्ययपदं द्विपदम् इदं सूत्रं. झलां झष् झलि झषि सॉरी झलां झष् झषि 8453 इत्तस्मात् जलाम् इत्यस्य अनुवृत्तिः अभ्यासे चर्च 8454 इत्यस्मात् चर् इत्यस्य अनुवृत्तिः तयोर् वची संहितायाम् 82108 इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं झलां चर् खरि च संहितायाम् झलस्थाने झलप्रत्याहारः अस्ति झलप्रत्याहारः अस्ति झलप्रत्याहारः नाम झलो झलमध्ये छ भो घड ध ज ब गड द इति वर्णः आगच्छति खलु झलस्थाने चरादेशो भवति
झल् झल् इति यत् पूर्वम् आसीत् खलु
अस्ति अल् पर्यन्तम् अस्ति खलु जब गड द कफ छटत चटत कप शशस ह झल् प्रत्याहारे आगच्छति वर्णात् आगच्छति चरादेशो भवति चर् आदेशः चर् चट त कप शशस एतानि वर्णानि आगच्छति भवती खरी खर् प्रत्याहार ख फ छट त चट त कप शशस झल् अधिकं खर् तत्र चरादेशः भवति खरि खरि सप्तम्यन्तं सप्तम्यन्तं च अव्ययपदमस्ति अतः सूत्रं द्विपदमस्ति झलां झष् झषि इत्यस्मात् झलाम् इत्यस्य अनुवृत्तिः झलाम् इत्यस्य अनुवृत्तिः नाम किं
नाम तत्र सूत्रे तु केवलं करि च इति अस्ति खलु तत्र झलाम् इति न लिखितम्
अच्छा झलाम् इत्यस्य अनुवृत्तिः अभ्यासे
तद् सूत्रे स्थापनीयं खलु अनुवृत्तिः नाम तत्र सूत्रे तस्य स्थापनं भवेत् खलु
खर् स्थापनीयं
खर् तत्र हा किन्तु प्रथमतया झलाम् इति स्थापनीयं हा यतोहि सूत्रे केवलं करि च इति अस्ति
अभ्यासे चर् च 8454 इत्यस्मात् चर् इत्यस्य अनुवृत्तिः तदपि खर् इति हा तयोर् या
यदि सङ्ख्यां पश्यति चेत् तत्र सङ्ख्या का का अस्ति खरि च इति तस्य तस्य सूत्रस्य सङ्ख्या का
खरि च 8455
जलां
तत्र
जलां झष् झषि तत्र सूत्रस्य सङ्ख्या
जलां झष् झषि 8453 पूर्वत्र सिद्धं सूत्रस्य प्रयोगमस्ति खलु तत्र
आमां तत्र पूर्वं पूर्वमेव अस्ति अतः तत्र तत्र अभ्यासे चर्च तत्र सङ्ख्या
अभ्यासे चर्च तस्य सङ्ख्या अस्ति 8454
अतः 55 मध्ये 53 अपि 54 तयोः अनुवृत्तिः इति
तयोः अनुवृत्तिः अस्ति तयोर्वा वचि संहितायाम् 8210 इत्यस्मात् संहितायाम् इत्यस्य अधिकारः
संहितायां इत्यस्य अधिकारः अतः अनुवृत्तिसहितं सूत्रमस्ति झलां चर् खरि च संहितायां झलां चर् खरि मध्ये संहिता अस्ति
हा संहिता यदा भवति झलां खरि खरि इति तत्र खरि परे तत्र सप्तमी अस्ति अतः खरि परे कर कर खर् इति
खरि परे चर् आदेशः भवति
हा इति चर् इति प्रथमान्तं तस्य समीचीनं भगिनि तत्र अत्र प्रायशः तत्र प्रथमान्तम् एतत् न दत्तं यतोहि मूलसूत्रे केवलं करि इति अस्ति तस्य सप्तमी इति उक्तं च इति अव्ययपदम् इति उक्तम् अतः तत्र
सूत्रमस्ति जलां चर् खरि च संहितायां
इति सूत्रं पूर्णसूत्रं तदस्ति अस्तु समीचीनं अस्तु समीचीनं भगिनि अस्तु अग्रे तत्र उषास्वामिनतन भगिनि अग्रे पठति वा
आं महोदय अनेन सूत्रेण अप्पदान्ते चत्वादेशः नित्यः त्यग् योगः स्यति अनेन सूत्रेण अप्पदान्ते चत्वादेशः नित्यः अत्र सूत्रमस्ति करीच इत्यनेन जल् स्थाने चर् आदेशः भवति वर् परः अस्ति चेत् जल् इत्यनेन प्रथम द्वितीय तृतीय चतुर्थ स्तर वर्णाः अस्ति अपि च शस ह अपि अस्ति जलां स्थाने जल् स्थाने खर् आयाति खर् परः अस्ति चेत् खर् इत्यनेन प्रथम द्वितीय वर्णाः अपि च शस अनेन सूत्रेण अप्पदान्ते चत्वादेशः नित्यः त्यग् योगः स्यति त्यग् अनन्तरं स्यति इति अस्ति सकारः खर् वर्णः भवति प्रथम द्वितीय अपि च शस सकारः खर् वर्णः आयाति त्यग् इति घकारः झल् भवति झल् वर्णः भवति झल् स्थाने चर् आदेशः भवति इत्यनेन घकारस्य स्थाने खकारः भवति यतोहि परः कर् अस्ति त्यक् योगः स्यति इति भवति अनन्तरम् आदेशप्रत्ययोः इत्यनेन ककारः इङ्कोः इत्यनेन ककारः पूर्वम् अस्ति इत्यनेन स्यति इत्यस्य कृते शकारः आयाति शत्वं भवति त्यक् योगः स्यति इति भवति अनन्तरं ककारशकारयोगो योगयोः त्यक्ष्यति इति भवति त्यक्षयति न त्यक्ष्यति ककारः
त्यक्ष्यति
सकारः अपि शकारः एव भवति त्यक्ष्यति
समीचीनम् अस्तु अग्रे
समासे अपि द्वयोः पदयोः संयोजनेन नूतनसमस्तपदस्य निर्माणे सति अप्पदान्ते चर्त्वादेशः नित्यः समस्तपदं योजनेन योजनस्य समये अपि सन्धिकार्यं नित्यं भवति अस्मद् योगः पुत्रः करि च इत्यनेन दकारः झल् पकारः खर्वर्णः दकारस्य स्थाने चर्त्वम् आदेशः दकारः तकारः भवति अस्मत् पुत्रः इति भवति अस्मत् पुत्रः इति समस्तपदं भवति
समीचीनं भगिनि अस्तु अस्तु समीचीनम् अस्तु अग्रे धन्यवादः भगिनि अस्तु अग्रे तत्र समीचीनं भगिनि धन्यवादः उषा दिवते भगिनि अग्रे
आं महोदय समासे अपि द्वयोः पदयोः संयोजनेन नूतनसमस्तपदस्य निर्माणे सति अपदान्ते चत्वादेशः नित्यः समासे अपि द्वयोः पदयोः
तत् कृतं भगिनि तत् कृतम् इदानीम् अग्रे
वाक्यस्य स्तरे सन्धिः एव वैकल्पिकः वाक्यस्य स्तरे सन्धिः एव वैकल्पिकः वाक्यस्तरे सन्धिः वक्तुः इच्छा इति चेत् खरि च इत्यनेन चत्वं नित्यम् सुहृत् पठति, अपि च सुहृत् पठति इति रूपं भवति. दकारस्य स्थाने खरिच इत्यनेन सुहृत् पठति, तकारः आगच्छति, सुहृत् पठति इति रूपं.
तर्हि तत्र भेदः कः तत्र समासे अपि तत्र वाक्ये तत्र भेदः कः? समासे अपि इति तदेकवारं पठतु. समासे
समासे अपि द्वयोः पदयोः यदि पदम्
पठतु तत्र समासे अपि
समासे अपि द्वयोः पदयोः संयोजनेन नूतन समस्तपदस्य निर्माणे सति आपदान्ते
अपदान्ते
अपदान्ते चत्वादेशः नित्यः. द्विपदम् अस्ति चेत् अपि समासे अपदान्ते अस्ति चेत् चत्वादेशः नित्यः भवति इति. अस्मद् यः पुत्रः दकारस्य स्थाने तकारः भवितुम् अर्हति, अपि च अस्मत् योः पुत्रः अस्ति चेत् अस्मत् पुत्रः अपि भवितुम् अर्हति.
नाम तत्र समासः अस्मद् योगः पुत्रः अस्मत् पुत्रः इति रूपं तत्र अस्मद् पुत्रः इति न वक्तुं शक्नुमः. एकमेव समस्तपदं भवति चेत् केवलम् अस्मत् पुत्रम् इति एव वक्तव्यम्.
यदि वक्तुः इच्छति चेत्
न तत्र समासे समस्तपदम् इत्युक्ते अस्मत् पुत्रः. यदि तत्र समस्तपदं मास्तु तत्र पदद्वयम् इति चिन्तयामश्चेत् अस्मत् पुत्रः इति इति. इदानीं तत्र वाक्ये नाम तत्र
वाक्ये समासः नास्ति चेत् तत् अस्माकं पुत्रः भविष्यति खलु. अस्मद् इति
क्षम्यताम् अस्माकं पुत्रः. धन्यवादः भगिनि. अहं न चिन्तितवान्. समीचीनं धन्यवादः भगिनि. समीचीनमेव अस्ति. भगिनि तत्र उषा भगिनि अस्माकम् इति तत्र व्यस्तप्रयोगः अस्ति चेत् अस्माकं पुत्रः. किन्तु वाक्यस्य स्तरे किं भवति?
वाक्यस्य स्तरे सन्धिः एव वैकल्पिकः. वाक्यस्य
सन्धिः एव वैकल्पिकः इत्युक्ते सन्धि इच्छा अस्ति चेत् सन्धिः भवति, इच्छा नास्ति चेत् सन्धि न भवति. अतः एव तत्र सुहृद्
पठति समस्तपदम् अस्ति चेत् सुहृत् पठति इति, अथवा सुहृत् पठति अपि समीचीनम् अस्ति. तत्र
समीचीनम् अस्ति इति इति अस्ति
महोदय. सुहृत् पठति इति समस्तपदं न, पदद्वयं सुहृद् इति समस्तपदं. महोदय अद्य अहं न जानामि, अहं समासे तु सन्धिनित्या, वाक्ये तु विवक्षायां खलु
इति एव अत्रापि वार्ता, सा एव वार्ता. सत्यं भगिनि. नाम तत्र वाक्ये नाम सुहृद् पठति इति वाक्ये तत्र विवक्षा अस्ति चेत् कर्तुं शक्नुमः, नो चेत्
समस्तपदं नास्ति महोदय.
सुहृति तु कर्ता अस्ति, पठति क्रियापदमस्ति खलु, तत्तु वाक्यमस्ति, तत्र समासः नास्ति.
सत्यं भगिनि. सत्यं भगिनि. किं चिन्तयामि अद्य जानामि
अस्ति चेत् तदपि
किं भगिनि
सुहृद् वदति इति अस्ति चेत्
तत्रापि सुहृत् इति एव
सुहृत् वदति.
सुहृत् वदति
समस्तपदम् इत्युक्ते समासः इत्युक्ते किम् इति पठनीयं महोदय.
आमां भगिनि तदपि कुर्मः हर्षिता भगिनी सम्यक् उक्तवती धन्यवादः भगिनि न जानामि किं चिन्तयामि अद्य अस्तु धन्यवादः भगिनि अस्तु अग्रे तत्र अग्रे तत्र कः पठति अस्तु तत्र ओ हर्षिता भगिनी पठितवती वा इदानीं अथवा न
न महोदय वाक्यस्य अन्ते परन्तु स्थितिः भिन्ना तत्र च भिन्नसूत्रेण चत्वं विधीयते वावसाने 8456 अवसाने झलः विकल्पेन चर् आदेशो भवति वयं पठितवन्तः खलु वावसाने अस्ति अनेन अवसानावस्थायां विकल्पेन जष्त्वं वा चर्त्वं वा अव्ययपदम् अवसाने सप्तम्यन्तं द्विपदमिदं सूत्रं झलां जषि 8453 इत्यस्मात् झलाम् इत्यस्य अनुवृत्तिः अभ्यासे चर्च 8454 इत्यस्मात् च इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अवसाने झलां चरो वा वदनावसरे लिखनावसरे च अग्रे कोऽपि शब्दः एवं नास्ति चेत् अवसानम् इति उच्यते वाक्यस्य अन्ते पूर्वविरामः भवति अतः तत्र अवसानसंज्ञा भवति तदर्थं संज्ञासूत्रम् अस्ति विरामोऽवसानम् 14110 वर्णानाम् अभावः अवसानसंज्ञकः विरामः प्रथमान्तम् अवसानं प्रथमान्तं द्विपदमिदं सूत्रं सूत्रं स्वयं सम्पूर्ण विरामः अवसानम् यत् अग्रे पठामि वा
तथा किञ्चित् वदतु भगिनि
अत्र दत्तमस्ति वाक्यस्य अन्ते भिन्ना स्थितिः भवति भिन्ना स्थितिः भवति अवसाने वाक्यस्य अन्ते तत् शब्दस्य अग्रे किमपि नास्ति अतः तत्र अवसानः अस्ति विरामः अस्ति चेत् अवसानः अस्ति अतः तत्र विकल्पेन चर्च चर्त्व भवितुम् अर्हति वावसाने इत्यस्मिन् सूत्रे झलां झषि झष् झषि इत्यस्मात् झलाम् इत्यस्य अनुवृत्तिः अस्ति अभ्यासे चर्च इत्यस्मात् चर् इत्यस्य अनुवृत्तिः अस्ति अतः अनुवृत्तिसहितसम्पूर्णसूत्रं भवति अवसाने झलां चरो वा इत्युक्ते अवसाने झलां वा इत्युक्ते विकल्पेन चर् भवति अवसाने झल् अस्ति झल् इत्युक्ते वर्गीयव्यञ्जन व्यञ्जनतः चत्वारः वर्गाः प्रथमचत्वारः स्तम्भाः अनन्तरं ऊष्माणः अस्ति चेत् तस्य स्थाने विकल्पेन चर् भवितुम् अर्हति इति
समीचीनं तत्र एकवारं तत्र खरी च इति सूत्रं यत् प्रथमसूत्रं चर्त्वसन्धेहे प्रथमसूत्रम् अस्ति तत्र अनुवृत्तिसहितसूत्रम् एकवारं प्रपठतु झलां
झलां चर् खरी च संहितायां यदि झल् परे खर् अस्ति चेत् चर् आदेशः भवति संहितायां झल् चर् मध्ये संहिता अस्ति चेत् तत्र चर् आदेशः भवति
समीचीनम् इदानीं तत्र किमस्ति अनन्तरं किमपि नास्ति अवसाने तत्र चरि इति अवसाने इति अस्ति नाम अग्रे किमपि न
यथा वयं दृष्टवन्तः महोदय झलां झष् झषि अथवा झलां झष् पदान्ते पदान्ते झष्वं वयं दृष्टवन्तः तदेव अत्र अस्ति अवसान् अस्ति चेत् झलां झषोन्ते पदान्ते अस्ति झलां झष् झषि अवसानम् अस्ति चेत् अस्ति तदेव खरिच अस्ति पदमध्ये अस्ति चेत् चतुर्थम् एतत् अस्ति अवसाने अस्ति चेत् चतुर्थम् अवसाने छल् अस्ति चेत् चतुर्थं भवितुम् अर्हति वा अवसाने इण्टर्चेञ्जिबल् अस्ति अस्ति चेत् जल् एण्ड् चर् आर् इण्टर्चेञ्जिबल् संस्कृते वक्तुं न शक्नोमि एतावत्
समीचीनं भगिनि अतः तत्र यथा इच्छा तत् भवति अस्तु समीचीनम् अस्तु अस्तु तर्हि तत्र अतः तत्र अन्तिमं तत्र तद् अस्तु तत्र ओ अस्तु अस्तु यथा विद्युत् तत्र उदाहरणमस्ति अस्तु अग्रिमे वर्गे तत्र एकवारं पुनरेकवारं तत्र अवसाने किं भवति इति पठित्वा तत्र उदाहरणमपि पठित्वा तदनन्तरं तत्र पुस्तके यानि उदाहरणानि दत्तानि तानि पठामः अस्तु समीचीनमस्ति तर्हि वदतु भगिनि
महोदय एका विनन्ती अस्ति भवान् वर्गस्य किञ्चित् पूर्वं प्रेषयतु भवान् यदा प्रेषितवान् अस्माकं कृते मध्यरात्रि आसीत् खलु कृपया
न न तत्र ध्वनिमुद्रणं स्थगयामि तदनन्तरं वदामि एकनिमिषः किन्तु एकनिमिषः तत्र शान्तिमन्त्रं तत्र का वदति तत्र शोभा भगिनी वदति वा शान्तिमन्त्रं तदनन्तरं तत्र ध्वनिमुद्रणं स्थगयामः
आं महोदय ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ धन्यवादः महोदय नमस्कारः
धन्यवादः धन्यवादः निमिषः